एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। ह्यः आषाढस्य प्रथमे दिवसे प्रदेश सर्वकारैः आगामिनः आर्थिक वर्षस्य आयव्ययक विवरणानि प्रदेशसभानाम् उपवेशेषु प्रस्तुतानि सन्ति। अत्र क्रमे गण्डकी प्रदेश सर्वकारस्य आर्थिक विषय मन्त्री डा टकराज गुरूङ आगामिनः आर्थिक वर्षस्य कृते द्वात्रिंशत अब्जानां सप्तनवति कोटीनां च रूप्यकाणां आयव्ययकं प्रास्तौत। कर्णाली प्रदेशस्य आर्थिक विषय योजना मन्त्री महेन्द्र केसी प्रदेशसभायाम् एकत्रिंशत अब्जानां एकचत्वारिंशत कोटीनां च रूप्यकाणां आयव्ययकं प्रस्तुतवान् वर्तते। मधेस प्रदेशे त्रिचत्वारिंशत अब्जानां उननवति कोटीनां एकविंशति लक्षाणां सप्तति सहस्राणां च अनुमानितम् आयव्ययकं प्रस्तुतं वर्तते। मधेस प्रदेशस्य आर्थिक विषय मन्त्री भरत शाह मधेससभायाः ह्यस्तनोपवेशे आगामिनः आर्थिक वर्षस्य कृते एतावत् परिमाणस्य अनुमानितम् आयव्ययकं प्रस्तुतवान्। अथ च सुदूरपश्चिम प्रदेश सर्वकारस्य आर्थिक विषय मन्त्री सुरेन्द्र बहादुर पाल एकत्रिंशत अब्जानां द्वाषष्टि कोटीनां च रूप्यकाणां आयव्ययकं प्रदेशसभायां प्रास्तौत। एवमेव कोशी प्रदेश सर्वकारस्य आर्थिक विषय योजना मन्त्री रामबहादुर मगर पञ्चत्रिंशत अब्जानां सप्तविंशति कोटीनां त्रिषष्टि लक्षाणां च रूप्यकाणां आयव्ययकं प्रदेशसभायाः उपवेशे प्रास्तौत। लुम्बिनी प्रदेश सर्वकारस्य अर्थमन्त्री चेतनारायण शर्मा आगामिनः आर्थिक वर्षस्य कृते अष्टात्रिंशत अब्जानां सप्तनवति कोटीनां च रूप्यकाणां आयव्ययकं प्रदेशसभायाः उपवेशे प्रस्तुतवान् वर्तते। बागमती प्रदेश सर्वकारस्य आर्थिक विषय योजना मन्त्री जगन्नाथ थपलिया आगामिना आर्थिक वर्षस्य कृते चतुष्षष्टेः अब्जानां चतुःपञ्चाशत कोटीनां च रूप्यकाणां आयव्ययकं प्रस्तुतवान् अस्ति। संघीय सर्वकारेण ज्येष्ठ मासस्य पञ्चदशे दिवसे आगामिनः दिवसे आर्थिक वर्षस्य कृते आयव्ययकस्य प्रस्तुतेः सांविधानिकी व्यवस्था अस्ति। एवमेव प्रदेश सर्वकारैः आषाढस्य प्रथमे दिवसे स्थानीय सर्वकारैस्तु आषाढस्य दशमे दिवसे आयव्ययकस्य प्रस्तुतेः सांविधानिकी व्यवस्था वर्तते। उपराष्ट्रपतिः रामसाय प्रसाद यादव कथयति वर्तमानावस्था जन्य समाह्वयान् प्रतिकर्तुं क्षमायाः उत्कृष्ट जनशक्तेः सर्वकारीय सेवा प्रवेशः अद्यतनी आवश्यकता अस्ति। लोकसेवायोगस्य चतुस्सप्ततितमं वार्षिकोत्सव समारोहं ह्यः काष्ठमण्डपे सम्बोधयन् उपराष्ट्रपतिः यादवः सर्वविध परिस्थितीनां कुशल व्यवस्थापन क्षमाणां कर्मचारिणां प्रचयनाय आयोगे न विशेषेण ध्यानं प्रदातव्यम्। तदवसरे उपराष्ट्रपतिः यादवः देश सञ्चालक सर्वकारीय निकाये स्थायी सर्वकारस्य रूपेण विद्यमानानां योग्यतम कर्मचारिणां प्रचयनस्य प्राप्त सांविधानिक दायित्वेन आयोगेन त्रिसप्तत्यां वर्षेषु स्वस्य मूल सिद्धान्तं योग्यतां निष्पक्षतां स्वच्छतां च प्रमुखाधारं मत्वा विधीयमानं कार्य सम्पादनं प्रास्तोत् प्रशंसत। समारोहे आयोगस्य अध्यक्ष माधव प्रसाद रेग्मी सर्वकारीय सेवायां सुरक्षा निकायेषु संगठित संस्थासु अन्य सार्वजनिक सेवायां च कर्मचारिणां प्रवेशनं प्रचयनं च अतिरिक्तं वस्तुनिष्ठं सामयिकं विश्वसनीयं च विधातुं आयोगस्य संस्थागत क्षमतायाः सुदृढीकरणाय आयोगस्य द्वितीय रणनीतिकी योजना निर्माय क्रियान्विताऽस्तीति असूचयत्। समारोहे उपराष्ट्रपतिः यादवः आयोगस्य पूर्व सदस्येन भीमदेव भट्टेन सह उत्कृष्ट कार्य सम्पादकं कर्मचारित्रयं च विशेष सम्मानेन सममानयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भासते आगामिनः आर्थिक वर्षस्य कृते विनियोजितस्य आयव्ययकस्य समीक्षायाः आवश्यकता वर्तते। नयाँ वानेश्वरवर्तिनी संसद भवने ह्या उपविष्टे एमाले संसदीय दलस्य उपवेशे अध्यक्ष ओली दलस्य नेतृत्वेन सञ्चाल्यमानानाम् मन्त्रालयानाम् कृते विनियुक्तस्य आयव्ययकस्य स्थितिरपि अवलोकनीयेति प्रावोचत। सबल विकासस्य लक्ष्यम् पञ्चानाम् वर्षाणाम् अभ्यन्तरे अधिगन्तव्यमिति चर्चयन् अध्यक्ष ओली देशस्य विकासाय विपन्नतायाः निवारणाय च उत्पादकत्वस्य वृद्धौ बलम् देयमिति अवोचत। अध्यक्ष ओली देश निर्माणस्य संकल्पेन स उद्यमशीलतायाः वृद्ध्यर्थम् प्रविधेः प्रयोगः करणीयः इत्यवोचत। राष्ट्रपतिः रामचन्द्र पौडेल ह्यो जेनेवा नगर वर्तिना नेपाली राजदूतावासेन राष्ट्रपतेः सम्माने आयोजिते स्वागत समारोहे सहभागी अभवत। तदवसरे स्विजरल्याण्ड देशस्य कृते नेपाली राजदूतः रामप्रसाद सुवेदी तत्रत्याः नेपाली जनाश्च राष्ट्रपतेः पौडेलस्य स्वागतम् विहितवन्तः। तदवसरे राजदूतः सुवेदी स्विजरल्याण्ड नेपालयोः सम्बन्धस्य विकासस्य सहयोगस्य च विविधेषु विषयेषु अज्ञापयत। समारोहे राजदूत सुवेदी पञ्चविंशतेः वर्षाणाम् अनन्तरम् नेपालस्य राष्ट्रप्रमुखेण सह स्विजरल्याण्ड देशस्य राष्ट्रप्रमुखस्य मेलवार्तया द्वयोः देशयोः सम्बन्धः इतोऽपि सुदृढः सम्भूतोऽस्तीति चर्चयन् अन्तर्राष्ट्रिय समसम्मेलने राष्ट्रपतेः पौडेलस्य सम्बोधनेन नेपालस्य अन्तर्राष्ट्रिय परिचय स्थापितोऽस्तीति अवोचत। नेपाल तैल निगमेन पेट्रोलियम शिलातैलीय पदार्थानां मूल्यं न्यूनीकृतं वर्तते। निगमेन पेट्रोल तैले प्रतिलिटरमितं रूप्यकत्रयेण डीजल मृत्तिका तैलयोः प्रतिलिटरमितं एकेन रूप्यकेण च मूल्यं न्यूनीकृतम् अस्ति। निगम संचालक समिते ह्या उपविष्टेन उपवेशेन गतरात्रौ द्वादशवादनात् क्रियान्वयनत्वेन तैलेन्धनस्य मूल्यं न्यूनीकर्तुं निर्णीतमस्ति। मूल्यस्य न्यूनीकरणेन सहैव पेट्रोल तैलेन्धनस्य प्रथमवर्गस्य मूल्यं 162 रूप्यकाणि 50 पणश्च द्वितीयवर्गस्य 164 तृतीयवर्गस्य 165 रूप्यकाणि प्राप्तानि सन्ति। एवमेव डीजल मृत्तिका तैलयोः प्रतिलिटरमितं प्रथमवर्गस्य मूल्यं 149 रूप्यकाणि 50 पणश्च द्वितीयवर्गस्य 151 तृतीयवर्गस्य 152 रूप्यकाणि निर्धारितानि सन्ति। डेंगू रोगस्य संक्रमणं सम्प्रति एकसप्तत्यां जनपदेषु प्रसृतं वर्तते। गत ज्येष्ठस्य एकादश दिवसं यावत् 75 जनपदेषु प्रसृतं डेंगू रोगस्य संक्रमणं सम्प्रति एकसप्तत्यां जनपदेषु प्रसृतम् अस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालयस्य अन्तर्गतायाः महामारी रोग नियन्त्रण महाशाखायाः कीटजन्य रोग शाखा प्रमुख डाक्टर गोकर्ण प्रसाद दाहाल जलवायोः परिवर्तनेन सहैव उष्णतायाः कारणेन डेंगू रोगस्य संक्रमणं वर्धितम् अस्तीति अवोचत। ह्यस्तनात् दिवसात् दर्शनार्थिनां कृते पशुपतिनाथ मन्दिरस्य चत्वारि एव द्वाराणि उद्घाटितानि सन्ति। पशुपतिनाथ मन्दिरे दर्शनार्थिनां संख्यायाः वृद्धेः कारणात् दर्शनार्थिनः प्रातः चतुर्भिरेव द्वारैः सहजतया दर्शनं कर्तुं शक्नुयुः इति धिया पशुपतिनाथ मन्दिरस्य चत्वारि एव द्वाराणि ह्यस्तनात् दिवसात् उद्घाटितानि सन्तीति कोषस्य प्रवक्ता रेवती रमण अधिकारी अज्ञापयत। एतत्पूर्वं महाशिवरात्रि पर्वणि हरितालिकायाः अवसरे बाला चतुर्दश्यां तिथौ चैव मन्दिरस्य चत्वारि द्वाराणि प्रातः चतुर्वादनात् उद्घाट्यन्ते स्म।